ओम नमो भगवते वासुदेवाय। अथ द्विचत्वारिंशोऽध्यायः। श्रीशुक उवाच। अथ व्रजन् राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम् विलोक्य कुब्जां युवतीं वराननाम् पप्रच्छ यान्तीं प्रहसन् रसप्रदः। का त्वं वरोर्वे तदुहानुलेपनं कस्याङ्गने वा कथयस्व साधुनः। देह्यावयोरङ्गविलेपमुत्तमं श्रेयस्ततस्ते न चिराद् भविष्यति। सैरन्ध्रि उवाच। दास्यस्म्यहं सुन्दरकंससम्मता त्रिवक्रनामायनुलेपकर्मणि मद्भावितं भोजपतेरतिप्रियं विना युवां कोऽन्यतमस्तदर्हति। रूपपेशलमाधुर्यहसितालापवीक्षितैः धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम्। ततस्तावङ्गरागेण स्ववर्णेतरशोभिना सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननां ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम्। पद्भ्यामाक्रम्य प्रपदे द्व्यङ्गुल्युत्तानपाणिना प्रगृह्य चुबुकेऽध्यात्ममुदनीन मदच्युतः। सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा। ततो रूपगुणौदार्य सम्पन्ना प्राह केशवम् उत्तरीयान्तमाकृष्य स्मयन्ती जातरिच्छया। एहि वीरगृहं यामो न त्वां त्यक्तुमिहोत्सहे त्वयोन्मथितचित्ताया प्रसीदपुरुषर्षभ। एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः मुखं वीक्ष्यानुगानां च प्रहसंस्तामुवाचः। एष्यामिते गृहं शुभ्रूः पुंसामाधिविकर्षनम् साधितार्थो गृहाणां न पान्थानां त्वं परायणम्। विसृज्यमाध्व्या वाण्या तां व्रजन्मार्गे वणिक्पथैः नानोपायनताम्बूलस्रग्गन्धैः साग्रजोर्चितः। तद्दर्शनस्मरक्षोभादात्मानं नाविदन् स्त्रियः विस्रस्तवासः कबरवलयालेख्यमूर्तयः। ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रमिवाद्भुतम्। पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्धिमत् वार्यमाणो नृपिः कृष्णः प्रसह्य धनुराददे। करेण वामे न सलीलमुद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम्। नृणां विकृष्य प्रबभञ्जमध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः। धनुषो भज्यमानस्य शब्दखं रोदसी दिशः पूरयामासयं श्रुत्वा कंसस्त्रासमुपागमत्। तद्रक्षिणः सानुचरा कुपिता आततायिनः ग्रहीतुकामा आववृर्गृह्यतां बध्यतामिति। अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ क्रुद्धौ धन्वन आदाय शकलेतांश्च जग्नतुः। बलं च कंसप्रहितं हत्वा शालामुखात्ततः निष्क्रम्य चेरतुर्रिष्टौ निरीक्ष्य पुरसम्पदः। तयोस्तदद्भुतं वीर्यं निशाम्य पुरवासिनः तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ। तयोर्विचरतो स्वैरमादित्योस्तमुपेयिवान् कृष्णरामौ व्रतौ गोपैः पुराच्छकटमीयतुः। गोप्यो मुकुन्दविगमे विरहातुराया आशासता शिशरिता मधुपुर्यभूवन् सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीम् हित्वेतरान्नुभजतश्चकमेयनं श्रीः। अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम्। कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च वधं निशम्य गोविन्दरामविक्रीडितं परम्। दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः बहून्यचष्टो भयथा मृत्योर्दौत्यकराणि च। अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः। स्वर्णप्रतीतिर्वृक्षेषु स्वपदानाम दर्शनम् स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम् यायान्नृदमाल्येकस्तैलाभ्यक्तो दिगम्बरः। अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च पश्यन्मरणसन्त्रस्तो निद्रां लेभेन चिन्तया व्युष्टायाम् निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते कारयामास वै कंसो मल्लक्रीडा महोत्सवम् आनर्चुः पुरुषारङ्गम् तूर्यभैर्यश्च जग्निरे मञ्चाश्चालङ्कृता स्रग्भिः पताका चैलतोरणैः तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः यथोपजोषम् विविशो राजानश्च कृतासनाः कंसः परिवृतो मात्यैराजमञ्च उपाविशत् मण्डलेश्वरमध्यस्थो हृदयेन विदूयता वाद्यमानेषु तूर्येषु मल्लतालोत्तरेषु च मल्लास्वलङ्कृता दृप्ताः सोपाध्याया समाविशन् चाणूरो मुष्टिकः कूटः शलस्तो शल एव च त आसे दुरुपस्थानम् वल्गुवाद्यप्रहर्षिताः नन्दगोपादयो गोपा भोजराजसमाहुताः निवेदितोपायनास्ते एकस्मिन् मञ्च आविशन् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनम् नाम द्विचत्वारिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।